वसूनवर्भूणाम् बृहन्नावन्तभृजनाः क्षामाय विश्वधायशोऽस्त्रम् धेनम् न मातरम् स देवम् देव्या धिया भरता जातवेदनम् अव्यानो वक्षता ऋषक् अयमुष्णप्रदे वयुर्भोता यज्ञाय नीयते न धोनयोरभिवृतो घृणीवान्ते दिक्मनाः अयमग्निरोष्णत्यमृतादिभजन्मनः सहसस्तिस्वहीयान् देवो जीवात मे कृतः